ॐ नमो भगवते वासुदेवाय। अथ विंशोऽध्यायः। शौनक उवाच, महीं प्रतिष्ठा मध्यस्य सौते स्वायम्भुवो मनुः, कान्यन्वतिष्ठद्वाराणि मार्गायावरजन्मना, क्षत्तामः भागवतः कृष्णस्यैकान्तिकः सुहृत्, यस्तत्याजाग्रजम् कृष्णे सापत्यमघवानिति, द्वैपायनादनवरो महित्वे तस्य देहजः, सर्वात्मनाश्रितः कृष्णम् तत्परांश्चाप्यनुव्रतः, किमन्वपृच्छन् मैत्रेयम् विरजास्तीर्थसेवया, उपगम्य कुशावर्त आसीनम् तत्त्ववित्तमम्। तयोः संवदतो सूत प्रवृत्तायमला कथाः, आपो गाङ्गा इवागग्निर्हरेः पादाम्बुजाश्रयाः, तानः कीर्तय भद्रम् ते कीर्तन्योदारकर्मणः, प्रसज्ञः को नु तृप्येत हरिलीलामृतम् पिबन्। एवमुग्रश्रवा पृष्ट ऋषिभिर्नैमिषायनैः, भगवत्यर्पिताध्यात्मस्थानः श्रूयतामिति। सूत उवाच, हरेर्धृतक्रोडतनोस्वमायया निशम्य गोरुद्धरणम् रसातलात्, लीलाम् हिरण्याक्षमवज्ञया हतम् सञ्जात हर्षो मुनिमाह भारतः। विदुर उवाच, प्रजापतिपतिः सृष्ट्वा प्रजासर्गे प्रजापतीन्, किमारभत मे ब्रह्मन् प्रब्रूय व्यक्तमार्गवित्, ये मरिच्यादयो विप्रायस्तु स्वायम्भुवो मनुः, ते वै ब्रह्मण आदेशात् कथमेतदभावयन्। सद्वितीया किमसृजन् स्वतन्त्रा उत कर्मसु, आहोस्वित्संहता सर्व इदम् स्म समकल्पयन्। मैत्रेय उवाच, दैवेन दुर्वितर्केण परेणा निमिषेण च, जातक्षोभात् भगवतो महानासीद् गुणत्रयात्, रजप्रधानान् महतस्त्रिलिङ्गो दैवचोदितात्, जातः ससर्ज भूतादिर्वियदादीनि पञ्चशः, तानि चैकैकशः स्रष्टुमसमर्थानि भौतिकम्, संहत्य दैवयोगेन हैममण्डमवासृजन्। सोऽसहिष्टाब्धिसलिले आण्डकोशो निरात्मकः, साग्रम् वै वर्षसाहस्रमन्ववात्सीत्तमीश्वरः, तस्य नाभेरभूत् पद्मम् सहस्रार्कोरुदीधिति, सर्वजीवनिकायौ को यत्र स्वयमभूत् स्वराट्, सोऽनुविष्टो भगवता यः श्रेते सलिलाशये, लोकसंस्थाम् यथा पूर्वम् निर्ममे संस्थया स्वया, ससर्जच्छायया विद्याम् पञ्चपर्वाणमग्रतः, तामिश्रमन्धतामिश्रम् तमो मोहो महातमः, विससर्जात्मनः कायम् नाभिनन्दन्स्तमोमयम्। जगृहुर्यक्षरक्षांसि रात्रिम् क्षुत्रिट् समुद्भवाम्, क्षुत्रिभ्यामुपसृष्टास्ते तम् जग्धुमभिदुद्रुवुः, मा रक्षतैनम् जक्षध्वमित्यूचुः क्षुत्रिडर्दिताः, देवस्थानाः संविघ्नो मामाम् जक्षत रक्षत, अहो मे यक्षरक्षांसि प्रजायूयम् बभूविथ। देवता प्रभयायाया दिव्यन् प्रमुखतो सृजत्, ते अहार्षुर्देवयन्तो विसृष्टाम् ताम् प्रभामहः, देवो देवान् जगनतः सृजति स्माति लोलुपान्, त एनम् लोलुपतया मैथुनायाभिपेदिरे, ततो हसन् स भगवान् असुरैर्निरपत्रपैः, अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत्। स उपव्रज्य वरदम् प्रपन्नार्ति हरम् हरिम्, अनुग्रहाय भक्तानामनुरूपात्मदर्शनम्, पाहि माम् परमात्मन्स्ते प्रेषणेनासृजम् प्रजाः, ता इमायभितुम् पापा उपाक्रामन्ति माम् प्रभो, त्वमेकः किल लोकानाम् क्लिष्टानाम् क्लेशनाशनः, त्वमेकः क्लेशदस्तेषामनासन्नपदाम् तव। सोऽवधार्यास्य कार्पण्यम् विविक्ताध्यात्मदर्शनः, विमुञ्चात्मतनुम् घोरामित्युक्तो विमुमोचः, ताम् क्वणच्चरणाम् भोजाम् मदविह्वललोचनाम्, काञ्चीकलापविलसद्दुकूलच्छन्नरोधसम्, अन्योन्यश्लेषयोत्तुङ्गनिरन्तरपयोधराम्, सुनासाम् सुद्विजाम् स्निग्धहासलीलावलोकनाम्, गूहन्तीम् व्रीडयात्मानम् नीलालकवरूथिनीम्, उपलभ्यासुरा धर्म सर्वे सम्ममुहुस्त्रियम्, अहो रूपमहो धैर्यमहो अस्यानवम् वयः, मध्ये कामयमाना नाम कामेव विसर्पति, वितर्कयन्तो बहुधा ताम् सन्ध्याम् प्रमदाकृतिम्, अभिसम्भाव्य विश्रम्भात् पर्यपृच्छन् कुमेधसः, कासि कस्याशिरम्भोरु को वार्थस्तेऽत्र भामिनि, रूपद्रविणपणियेन दुर्भगान्नो विबाधसे, या वा काचित्त्वमबले दिष्ट्या सन्दर्शनम् तव, उत्सुनो शीक्षमाणानाम् कन्दुक क्रीडया मनः, नैकत्र ते जयति शालिनि पादपद्मम् घ्नन्त्या मुहुः करतलेन पतत्पतङ्गम्, मध्यम् विषीदति बृहत्स्तनभारभीतम् शान्तेव दृष्टिरमला सुशिखा समूहः, इति सायन्तनीं सन्ध्या मसुरा प्रमदायतीं प्रलोभयन्तीं जगृहुर्मत्वा मूढधियः स्त्रियं प्रहस्य भावगम्भीरं जिग्रन्त्यात्मानमात्मना कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् विससर्जतनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियां त एव च दधुः प्रीत्या विश्वा वसुपुरोगमाः सृष्ट्वा भूतपिशाचांश्च भगवानात्मतन्द्रिणा दिग्वाससो मुक्तकेशान् वीक्ष चामीलयदृशौ जगृहुस्तद्विसृष्टां तां त्रिम्बणाख्यां तनुं प्रभोः निद्रामिन्द्रियविक्लेदो यया भूतेषु दृश्यते येनोच्छिष्टान् धर्षयन्ति तमुन्मादं प्रचक्षते ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः साध्यान् गणान् पितृगणान् परोक्षेणासृजत् प्रभुः त आत्मसर्गं तं कायं पितरः प्रतिपेदिरे साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजत् तेभ्यो ददात्तमात्मानमन्तर्धानाख्यमद्भुतम् सकिन्नरान् किं पुरुषान् प्रत्याम्येनासृजत् प्रभुः मानयन्नात्मनात्मानमात्माभासं विलोकयन् ते तु तज्जगृहूरूपं त्यक्तं यत्परमेष्ठिना मिथुनी भूय गायन्तस्तमेवोषसि कर्मभिः देहेन वै भोगवता शयानो बहुचिन्तया सर्गेनुपचिते क्रोधादुत्ससर्जः तद्वपुः ये हीयन्तामुतः केशाः यस्तेऽङ्गजग्गिरे सर्पा प्रसर्पतः क्रूरा नागाभोगोरुकन्धराः स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः तदा मनून् ससर्जान्ते मनसा लोकभावनान् तेभ्यः सोऽत्यसृजत् स्वीयं पुरं पुरुषमात्मवान् तान् दृष्ट्वा ये पुरा सृष्टाः प्रसुसंसो प्रजापतिम् अहो एतज्जगत्स्रष्टः सुकृतं बतते कृतं प्रतिष्ठिता क्रिया यस्मिन् साकमन्नमदामहे तपसा विद्यया युक्तो योगेन सुसमाधिना ऋषीन् ऋषिर्ऋषिकेशः ससर्जाभिमता प्रजाः तेभ्यश्चैकैकशः स्वस्य देहस्यांशमदादजः यत्तत्समाधियोगर्धि तपो विद्याविरक्तिमत् ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।